एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते देशे विद्यमानानाम् विकृतीनाम् अव्यवस्थितीनाञ्च अन्तस्य नेतृत्वम् माओवादी केन्द्रम् गृह्णाति। नेकपा माओवादी केन्द्रस्य दोरम्बा सैलुङ ग्रामपालिकया गतदिने आयोजितौ विंशम दोरम्बा हत्याकाण्ड स्मृति दिवसम् श्रद्धाञ्जली सभाम् च सम्बोधयन् प्रधानमन्त्री प्रचण्डः देशस्य व्यवस्थायाम् परिवर्तनकारिणः आन्दोलनस्य स्वाधीनतायाः अखण्डतायाश्च पक्षे वीतयुद्धम् माओवादी केन्द्रम् जनतायाः जीवने परिवर्तनम् आनेतुम् क्रियाशीलम् अस्ति इति अवदत्। प्रधानमन्त्री प्रचण्डः अब्रवीत् अतः परं माओवादी दलं जनतायोजकं प्रतिगृहं विशेषाभियानं संचालयिष्यते। डेंगी रोगेण आराष्टं चतुर्दश सहस्राणि शतद्वयं च जना संक्रान्ता सन्ति। कोशी प्रदेशस्य केवलं सुनसरी जनपदे नव सहस्राणि जना संक्रान्ता सन्तीति महामारी रोग नियन्त्रणमा शाखाया निर्देशक डाक्टर रुद्र मरासिनी अज्ञापयत्। निर्देशक डाक्टर मरासिनी डेंगी रोगस्य संक्रमणं वर्षायामे प्रारभ्य विजयादशमी दीपावली पर्वोत्सवं यावत् स्थास्यति इति हेतोः सावधानाः भवितुम् अन्वरुणत। निर्देशक डाक्टर मरासिनी विभिन्न रोग पीड़िता दस जना डेंगी संक्रमण से कारण मृता असूचयत। डेंगी रोगेण सर्वाधिक संक्रांता जना सुनसरी धादिंग मोरंग जनपदना वर्तन्ते। इदानीं यावत् डोल्पा मुगु जनपदौ संक्रमण रहितौ वर्तेते। नेपालस्य विद्युतः बंगलादेशे निर्याताय बहुपक्षीय सहमति सम्पन्नास्ति। नेपाल भारत बंगलादेशानां मध्ये विद्युतः निर्याताय आवश्यक सहमति सम्पन्नास्ति इति ऊर्जा जलस्रोत सेचन मन्त्रालयेन ज्ञापितं वर्तते। प्राथमिक चरणे बंगलादेशेन नेपालात् चत्वारिंशत् मेगावाट मिता विद्युत नेष्यते इति ज्ञापितमस्ति। नेपालस्य विद्युत प्राधिकरणेन भारतस्य एनभीबीएन संस्थानतः बंगलादेशे विद्युतः निर्याताय सहमति गृहीता वर्तते। अनया एव संस्थया नेपालस्य विद्युत बंगलादेशे प्राप्स्यति। विद्युतः निर्याताय आवश्यक सहमति धृतास्ति। केषुचित् विषयेषु सहमति धारणम् अवशिष्टं सदपि विषयोऽयं शीघ्रं निर्णय प्रापयते इति प्राधिकरणस्य प्रबल अधिकारी अज्ञापयत्। ईमेल सन्देशेन परस्परं सहमति धृतास्ति। भौतिकोपस्थितौ एव देशद्वयस्य अधिकारिभिः हस्ताक्षरणाय अपि सहमति धृता वर्तते। नेपाल नागरिकोड्डयन प्राधिकरणेन दुर्गम क्षेत्राणां विमानोड्डयनाय क्रियान्वितं प्रतिबन्धनं निराकृतं वर्तते। प्राधिकरणेन उड्डयन सम्बद्धं मापदण्डं कठोरेण क्रियान्वीय आराष्टं पर्वतीय क्षेत्रस्य स्वल्पकालिकोड्डयनेन अवतरणेन च युतेषु विमानस्थलेषु क्रियान्वितः उड्डयनावधिः निराकृत इति प्राधिकरणस्य सूचनाधिकारी ज्ञानेन्द्र झुल अज्ञापयत्। लैनचोरवर्तिना खनी भूगर्भ विभागेन राष्ट्रिय विद्यमानानां खनीनाम् अन्वेषणाय द्वात्रिंशदुत्तर चतुश्शताय संस्थानेभ्यः अनुमतिः प्रदत्ता वर्तते। त्रयस्त्रिंशदुत्तर द्विसहस्रतम विक्रम वर्षतः खनी भूगर्भ क्षेत्रयोः कार्यं विदधानेन अनेन विभागेन नेपालस्य खनिजोद्योगस्य प्रवर्धनाय सम्भाव्यानां खनीनाम् अन्वेषणाय एतेभ्यः संस्थानेभ्यः अनुमतिपत्रं प्रदत्तमस्ति। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं नेपालस्य कृते संयुक्ताधिराज्य भियतनाम देशयोः नवनियुक्तौ राजदूतौ स्वपदीय प्रमाणपत्रं प्रस्तुताम्। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते पृथक् पृथक् समारोहे नेपालस्य कृते संयुक्ताधिराज्यस्य आवासीय राजदूतः रोबर्ट डोमिनिक ए रसेल फेन, भियतनाम देशस्य नवनियुक्तः आवासीयतर राजदूतः गुएन थान हाई च स्वपदीय प्रमाणपत्रं प्रस्तुतामिति राष्ट्रपति कार्यालयस्य प्रवक्त्र्या शैलजा रेग्मी भट्टराई इत्यनया प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति सर्वेषां स्तराणां कर्मचारिभिः राज्य सञ्चालनाय समानं दायित्वमनुभूय सेवा प्रवाहस्य कार्यं विधातव्यम्। असौ सर्वकारेण सुशासनं प्राथमिकतायां समाविष्टमिति चर्चयन्ति। सुशासनं सेवा प्रवाहादेव सम्भवतीति हेतोः सर्वेषां स्तराणां कर्मचारिभिः समान दायित्वेन कार्यं विधेयमिति अवदत्। प्युठान जनपदस्य मुख्यालय खलंगा स्थाने सर्वकारीय कार्यालयानां प्रमुखैः कर्मचारीभिश्च सह या आयोजिते मेलने असौ सुशासनं केवलं एकेन निकायेन न सम्भवतीति अब्रवीत। ह्य एव नेपाल पत्रकार महासंघस्य प्युठान शाखया आयोजिते पत्रकार मेलन कार्यक्रमे मन्त्री शर्मा वर्तमान सर्वकार सुशासनाय भ्रष्टाचारस्य निरोधनाय च प्रतिबद्धोस्तीति चर्चयन्ती अभासत। गृहाभ्यन्तरो जन सन्नपि न त्यज्यते। असौ सर्वकार प्रारम्भकालादेव विकृति विसंगति समाप्य सुशासनम संस्थाप्य च भ्रष्टाचारस्य अन्ताय निर्ममतया अग्रे वर्धितोस्तीति अकथयत। सर्वकारेण लम्पिस्किन संक्रमणस्य विरूद्धे पशुषु टीकाकरणाभियानं संचालयितुं पूर्वकार्यं विहितमस्ति। आगामिनो माघमासस्य अभ्यन्तरे विपुल संख्यायां पशुषु टीकाकरणम् आदास्यते। द्वितीय चरणे स्वस्यैव प्रयोगशालातः लम्पिस्किन रोगस्य प्रतिरोधिनः टीकाकरणस्य उत्पादनाय पूर्वकार्यार्थं सर्वकारः संलग्नो वर्तते। अस्मिन् वर्षे टीकाकरणं क्रीणीत्वा अपरस्मिन् वर्षे स्वेनैव उत्पादनं विधाय च टीकाकरणं आधातुं सर्वकारेण पूर्वकार्यं विहितमस्ति। आगामिनो माघमासस्य अभ्यन्तरे न्यूनतोपि 85 लक्षेषु पशुषु लम्पिस्किन रोगस्य प्रतिरोधी टीकाकरणम् आधास्यते इति कृषि पशु पक्षी विकास मन्त्री डाक्टर बेदुराम भूषालः अज्ञापयत्। अर्थमन्त्री डाक्टर प्रकाश शरण महत निगदति कांग्रेस माओवादी सहितस्य गठबन्धनस्य वर्तमान सर्वकार सम्पूर्ण समयं थास्यति। सिराहा जनपदस्य गोलबजार स्थाने ह्य आयोजिते नेपाली कंग्रेस दलस्य जनपदस्तरीय कार्यकर्तृ मेलने मन्त्री डाक्टर महत निर्वाचने अपि गठबन्धनम् निर्माय एव प्रतिस्पर्धितम् सर्वकारेण जनतायाम् उत्साह प्रवर्धनत्वेन उचितानि कार्याणि विधीयमानानि सन्ति च कारणेन सम्पूर्ण समयं गठबन्धनस्य सर्वकार चलतीति विश्वासं व्यक्तवान्। अर्थमन्त्री डाक्टर महत तराई मधेस क्षेत्रस्य कृषेः विकासाय सर्वकारेण सुनकोशी मरिण जलान्तरणाय कमला सेचना योजनायै च उच्चैर महत्वं प्रदाय कार्यं विधीयमानमस्तीति समस्पष्टयत। मन्त्री डाक्टर महत कार्यकर्तृन् कंग्रेस दलस्य संस्थागत निर्णय एकताबद्धा भूत्वा प्रवर्तितुम् अन्वरुणत। राष्ट्रिय सभाया सबल विकास सुशासन समितौ सबल विकासस्य लक्ष्याणि अधिगन्तुम् समाजस्य आवश्यकताम् भूधरातलं चाधृत्य षोडशी योजना निर्मातव्येति सांसदाः बलं ददति। समिते ह्यसीम प्रासादे उपविष्टे उपवेशे सांसदाः नेपालस्य भूधरातलस्य सामाजिक आवश्यकतायाश्चाधारेण षोडश्याः योजनायाः लक्ष्याणि निर्धारणीयानीति बलं प्रादुः। उपवेशे राष्ट्रिय योजना योगस्य उपाध्यक्ष डाक्टर मीनबहादुर श्रेष्ठ षोडश्याः योजनायाः अवधारणा पत्रेण सुशासनस्य सामाजिक न्यायस्य समृद्धेश्च विषयः चिन्तितः इत्यतः सर्वेषां वर्गक्षेत्र समुदायानां सशक्तिकरणं समुचित प्रतिनिधिश्च निर्धारयिष्येते इति विश्वासं व्यक्तवान्। उपवेशे उपाध्यक्ष डाक्टर श्रेष्ठ अवधारणा पत्रमाधृत्य षोडशी योजना निर्मात्स्यते इत्यतः अवधारणामाश्रित्य परामर्शनं प्रदातुं च अन्वरुणत। संख्वा सभावर्तिनः जनपद कारागारस्य अभ्यन्तरे भूताया इहो द्वयोः कारावासिनोः हत्यायाः प्रकरणम् अनुसन्धातुम् संघटितया समित्या घटनायां प्रहरिणाम् केषाञ्चन कारावासिनाम् च संलग्नता दृष्टेति ज्ञापितम् वर्तते। अनुसन्धान समितेः संयोजकः कारागार व्यवस्थापन विभागस्य निर्देशकश्च कमल प्रसाद पाण्डे कारागारे संयोजितस्य निकट दृश्याङ्कनोपकरणस्य दृश्यांशानाम् अध्ययनात् घटनायां प्रहरीभिः कारावासी पालकैश्च सह केषाञ्चन कारावासिनां संलग्नता दृष्टेति अज्ञापयत् इति समाचाराः।